सहस्रपाप स भूमिं विश्वतो वृत्वा अत्यतिष्ठ दशाङ्गुलम् यत्भूतं यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिराहति पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोऽर्थः उदयित् पुरुषः तस्मान् विराड जायत विराजो अधिपुरुषः सजातो अत्यरिच्यत पश्चात् भूमिमदो पुरुषेण हर्षा देवायज्ञमतन्वत वसन्तास्यासीदाज्यम् ग्रीष्मः इत्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तसमिधः कृताः देवायज्ञं तन्वानाः अपत्नन् पुरुषं पशुन् यज्ञं बर्हि ऋषिप्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यं पशुङ्गस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद् यज्ञात् सर्वहुतः रुचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजा तस्मादश्वा अजायन्त ये केचो भयादतः गावोः जज्ञिरे तस्मात् तस्माच्चाता अजावय यत्पुरुषं व्यदधुः कथिता व्यकल्पयन् मुखं किमस्य को बाहो का भूरो पादावुच्यते ब्राह्मणो अस्य मुखमासीत् बाहो राजन्यः कृतः पूरो तदस्य यद्वैश्यः पथ्यागम् जायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्च जायत नाभ्यामा
रामश्रुतिं पुरुषार्थम्
अस्ति नाद प्रबोधिनी श्रियं देवीमुपहये
श्री
ಮನಸ ಕಾಮ ಮಾಕೋತಿ ವಾಚ ಸತ್ಯಮಸಿ ಮಹಿ ಪಶು ಕರ್ತಮೇನ ಪ್ರಜಾಭೂತ ಮೈ ಸಂಭವ ಕರ್ತಮ ಶ್ರಿಯಂ ಸೃಜಂತು ಸ್ನಿಗ್ಧಾನಿ ಚಿಕ್ಲೀತ ವಸಮೇ ಗೃಹೇ ನಿಜ ದೇವಿ ಮಾತರಗಂ ಶ್ರೀಯಂ ಪ್ರಯತೋ ಲೋಕೈಕ ದೀಪಾಂಕುರಾ